Please stay tuned.
Ganana Antwa Ganapati Gum Hava Mahe Kavim Kavina Mupamashya Vastamam Jeshtarajam Brahmanam Brahmanaspata Ana Shrinvan Noti Vissida Sadhanam Prano Devi Saraswati Vaje Mirvajini Vati Dhinam Avitvayavatu Ganeshaya Namaha Saraswatyai Namaha Shri Gurubhyo Namaha Harihi Om Om Namo Bhagavate Rudraya Om Namaste Rudra Manyava Uto Taishave Namaha Namaste Astu Dhanmane Bahubhyamutate Namaha Yata Ishu Shivatama Shivam Bhavuvate Dhanuhu Shivasharabhyaya Tavatayano Rudra Mridayam Yate Rudra Shiva Tanura Ghora Papakashini Tayanastanu Vashantamaya Girishanta Vijagashi Yami Shungirishanta Haste Viparshastave Shivam Giritratam Guru Mahigumsi Purusham Jagata Shivena vachasattva girishachavadamasi Yathanas sarvamijjagada yakshmagum sumana asat Adhyavochada divakta pradhamo devyo bhishaka Nahigrstra sarvaan jambhayan sarvaaschayatu dhanyaha Asavyastamro aruna utavabhrussu mangalaha Yeche magum rudra abido dikshushita Sahasra shobai shagum hedagi mahe Asavyo vasarpatini lagrivo vilohitaha Utainam gopa adrishan adrishan dahariyaha Utainam vishwa bhutani sadrishto mridayatinaha Namo astuni lagrivaya sahasrakshaya medhushe Adho ye asya sattva noham tebhyo karan namaha Pramuncha dhanvanastvamubayorajniyorjyam Yatsya dehasta isha vapparata bhagavo vapam Avatatya dhanustvagum sahasrakshashate shudhe Nishirya shalya namukha shivona sumanabhava Vijyam danukka pardino vishalyo banavagum huta Anishan nasye shava abhurasya nishangadihi Yate he dirmirushta mahaste babuvate dhanuhu Tayasman vishvatastvamayakshmaya paribhuja Namaste astvayudharyana tataya drishnave Ubhavyam utate namo bahubhyam tavadhanvane Parite dhanvano heti rasman rinaktu vishvataha Adhoya ishudistavare asmannidehitam Namaste astu bhagavan vishveshwaraya maha Devaya trayambakaya త్రిపురాంధకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యవాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్యః పశూనాం పతయే నమో నమః. సస్పింజరాయ త్రిషీమతే పథీనాం పతయే నమో నమో. బబ్లుషాయ వివ్యాధినేన్నానాం పతయే నమో నమో. హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో. భవస్య హేత్యే జగతాం పతయే నమో నమో. రుద్రాయ తథా వినేక్షేత్రాణాం పతయే నమో నమో. సూతాయ హంత్యాయ వనానాం పతయే నమో నమో. రోహితాయ సపతయే వృక్షాణాం పతయే నమో నమో. మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో. భువందయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ. ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ. కృత్స్నవీతాయ ధావతే సత్వనాం పతయే నమః. నమః సగమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమ. కకుభాయ నిషంగిణే సేనానాం పతయే నమో నమో. నిషంగిణగిషుధిమతే తస్కరాణాం పతయే నమో నమో. వంచతే పరివంచతే స్థాయూనాం పతయే నమో నమో. నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమ. శ్రీకావిభ్యో జిగాగుం సద్భ్యో ముష్ణతాం పతయే నమో నమో. శ్రీమద్భ్యో నత్తం చరద్య ప్రకృంతానాం పతయే నమో నమ. ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ. గిషు మద్భ్యో ధన్వా విభ్యశ్చవో నమో నమ. ఆతన్వా నేభ్య ప్రదిదధానేభ్యశ్చవో నమో నమ. ఆయచ్చద్భ్యో విసృజద్భ్యశ్చవో నమో నమోస్యద్భ్యో విద్యద్భ్యశ్చవో నమో నమ. ఆసీనేభ్య శయానేభ్యశ్చవో నమో నమ. స్వపద్భ్యో జాగ్రద్భ్యశ్చవో నమో నమ. తిష్టద్భ్యో ధావద్భ్యశ్చవో నమో నమ. సభాభ్యః సభాపతిభ్యశ్చవో నమో నమో. అశ్వేభ్యో అశ్వపతిభ్యశ్చవో నమః. నమ ఆవ్యాధినీభ్యో వివిధ్యందేభ్యశ్చవో నమో నమ. ఉగణాభ్యశ్రగుంహతేభ్యశ్చవో నమో నమో. గృత్సేభ్యో గృత్సపదిభ్యశ్చవో నమో నమో. ప్రాదేభ్యో ప్రాతపదిభ్యశ్చవో నమో నమో. గణేభ్యో గణపతిభ్యశ్చవో నమో నమో. విరూపేభ్యో విశ్వరూపేభ్యశ్చవో నమో నమో. మహద్భ్యః క్షుల్లకేభ్యశ్చవో నమో నమో. రథిభ్యో రథేభ్యశ్చవో నమో నమో. రథేభ్యో రథపతిభ్యశ్చవో నమో నమ. సేనాభ్యసేనానిభ్యశ్చవో నమో నమః. శత్రుభ్యః సంగ్రహీతృభ్యశ్చ वो नमो नमः सक्षद्भ्योरदकारेभ्यश्च वो नमो नमः कुलालेभ्य कर्मारेभ्यश्च वो नमो नमः पुंडिस्तेभ्यो निषादेभ्यश्च वो नमो नमगिषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमः श्वभ्यश्वपदिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च प्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीदुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शेभ्याय च नमः ऊर्म्याय च वत्सन्याय च नमः श्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अपगल्भाय च नमो जगन्याय च बुद्ध्याय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेनाय चाशुरथाय च नमः शूराय चावबिन्दते च नमो वर्मिणे च वरूधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेशुधिमते च नमः तीक्ष्णे च वेचायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ऐत्रियाय च तप्याय च नमो वात्याय च रेश्मियाय च नमो वास्तव्याय च वास्तुभाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः जम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कुर्याय च नमः पार्याय च पार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः षष्ट्याय च भेन्याय च नमः सिकत्याय च प्रवाह्याय च नमः हिरण्याय च प्रपत्याय च नमः किगुंशिलाय च शयनाय च नमः कपर्जिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्म्याय च सूर्म्याय च नमः पर्ण्याय च पर्णच्छद्याय च नमोपगुरमाणाय चाभिघ्नते च नमः आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मा रोमो एषाम् किञ्चनाममत् या ते रुद्रशिवार्तनो शिवा विश्वाह भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुं रुद्राय तपसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्छम् च योच्चमनुरायजे पिता तदस्याम तव रुद्रप्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वधेर्पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तनये मान आयुषिमानो कोशुमानो अश्वेषुरीरिषः वीरान् मानो रुद्रपामितो वदेर्हविष्मन्तो नमसा विधेमते आराते गोघ्नमुत पूरुषग्ने क्षयद्वीराय सुम् नमस्मे ते अस्तु रक्षा जनो अतिज देव ब्रूयधा जन शर्मयच्च द्विबरुहाः सुहिश्रुतम् गद्दसदम् युवानम् मृगन्न भीममुपहत्रुमुग्रम् मृडाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव बन्धु सेनाः परिणो रुद्रस्य हेतुर्विणक्तु परित्वेषस्य दुर्मदिरघायोः अवस्थिरा मघवद्भ्यस्तनुष्वमीढस्तो गायतनयाय मृडया मीढुष्टमशिवतम शिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्यम् वसा नमाचर पिनाकम् बिभ्रदागहे विगिरिद विलोहित नमस्ते अस्तु भगवः
यास्ते सहस्रगुम्हेतयो न्यमस्मन्निवपन्तुताः सहस्राणि सहस्रदा बाभुवोस्तव हेतयः तासामीशानो भगव पराचेना मुखाग्रदे सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुं सहस्रयो जने वदन्वानि तन्मसे अस्मिन्महत्यर्णवेन्दरिक्षे भवाधे नीलग्रीवाश्चितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाश्चितिकण्ठा दिवगुं रुद्रा उपश्रिताः ये वृक्षेषु तस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्कपर्थिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पतिरक्षय ऐलभृदायव्युधः ये तीर्थानि प्रचरन्ति शृगावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुं सहस्रयो जने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि ये शामन्नं वातो वरुषमिषभस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशोदेचेर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् ग्रीष्मो यश्च नो द्वेष्टितम् भोजम् मे दधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योमर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वाणमयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्यर्मे पाहि तमस्तु हि यस्य सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भृद्देवमसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे स जोयगुम् शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ शञ्च मे मयश्च मे प्रियम् च मेणु कामश्च मे कामश्च मे सौ मनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संवित्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे स्थिरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे नभित्रं च मे भयं च मे सुगं च मे शयनं च मे शोचा च मे सुदिनं च मे ॐ शान्ति शान्ति शान्तिः
भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः तुष्टुवागुंसस्तनूभिः यशेम देवहितं यदायुः
स्वस्तिन इन्द्रो वृद्धश्च वाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्षो अरिष्टनेभिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः
अनाभोगा परं मृत्युं पापाः संयन्ति सर्वदा आभोगास्त्वेव संयन्ते यत्र पुण्यकृतो जनाः ततो मध्यममायन्ते चतुमग्निं च सम्प्रति पृच्छामि त्वा पापकृतः यातयते यमः त्वन्नस्तद्ब्रह्मन् प्रब्रूहि यदि वेत्था सतो गृहान् कश्यपादुदिता सूर्याः पापान् निभ्यन्ति सर्वदा रोदस्योरं दर्देशेषु त्रन्यस्यन्ते वासवैः ते शरीरा प्रपद्यन्ते यथा पुण्यस्य कर्मणः अपान्यपादकेशासः तत्र ते यो निजा जनाः मृत्वा पुनर्मृत्युमापद्यन्ते अद्यमानाः स्वकर्मभिः आशातिकाकृमयहिव ततः पूयन्ते वासवैः अपैतं मृत्युञ्जयते य एवं वेद स खल्वैवं विद्ब्राह्मणः दीर्घश्रुत्तमो भवति कश्यपस्यातिथिसिद्धगमनसिद्धागमनः तस्यैषा भवति आयत्मिन् सप्तवासवाः रोहन्ति पूर्व्यारुहः ऋषिरः दीर्घश्रुत्तमः इन्द्रस्य घर्मो अतिथिरिते कश्यप पश्यको भवते यत्सर्वं परिपश्यतेति सौक्ष्म्यात् अदाग्नेरष्टपुरुषस्य तस्यैषा भवते अग्नेन यसुपधाराये अस्मान् विश्वानि देववयुनानि विद्वान् युयोध्यस्वज्जुहुराणमेनः भूयिष्ठां ते नम उक्तिं विधे मे ते अग्निश्च जातवेदाश्च सहोजा अजिरा प्रभुः वैश्वानरो नर्यापाश्च पङ्क्तिराधाश्च सप्तमः विसर्पेवाष्टमोऽग्नेना
ಏತೇಷ್ಟೌ ವಸವಃ ಚೇತಾರ್ ಇತೇ ಯತತ್ವೇವಾಗ್ನೇರಚ್ಚರ್ವರ್ಣವಿಶೇಷಾಃ ನೀಲಾರ್ಚಶ್ಚ ಪೀತಕಾರ್ಚಶ್ಚೇತೇ ಅಥವಾಯೋರೇಕಾದಶ ಪುರುಷಸ್ಯೇಕಾದಶ ಸ್ತ್ರೀಕಸ್ಯ ಪ್ರಭ್ರಾಜಮಾನಾ ವ್ಯವದಾತಾಃ ಯಾಶ್ಚ ವಾಸುಕಿ ವೈದ್ಯುತಾಃ ರಜತಾ ಪರುಷಾಃ ಶ್ಯಾಮಾಃ ಕಪಿಲಾತಿ ಲೋಹಿತಾಃ ಊರ್ಧ್ವಾ ಅವಪತಂತಾಶ್ಚ ವೈದ್ಯುತ ಇತ್ಯೇಕಾದಶ ನೈನಂ ವೈದ್ಯುತೋ ಹಿನತ್ತೇ ಯ ಏವಂ ವೇದ ಸಹೋವಾಚ ವ್ಯಾಸ ಪಾರಾಚರ್ಯಃ ವಿದ್ಯುದ್ವಧಮೇವಾಹಂ ಮೃತ್ಯುಮೇಚ್ಛಮಿತೇ ನತ್ವಕಾಮಗುಂ ಹಂತೇ ಯ ಏವಂ ವೇದ ಅಧಗಂಧರ್ವಗಣಾಃ ಸ್ವಾನಭ್ರಾಡ್ ಅಂಗಾರಿರ್ಬಂಭಾರಿಃ ಹಸ್ತಸ್ಸುಹಸ್ತಃ ಕೃಶಾನುರ್ವಿಶ್ವಾವಸುಃ ಮೂರ್ಧನ್ವಾನ್ ಸೂರ್ಯವರ್ಚಾಃ ಕೃತಿರಿತ್ಯೇಕಾದಶ ಗಂಧರ್ವಗಣಾಃ ದೇವಾಶ್ಚ ಮಹಾದೇವಾಃ ರಶ್ಮಯಶ್ಚ ದೇವಾಗರಗಿರಃ ನೈನಂ ಗರೋಗಿನಸ್ತೆ ಯ ಏವಂ ವೇದ ಗೌರೇಮಿಮಾಯ ಸಲೀಲಾ ನಿತಕ್ಷತೆ ಏಕಪದೇ ದ್ವಿಪದೇ ಸಾ ಚತುಷ್ಪದೇ ಅಷ್ಟಾಪದೇ ನವಪದೇ ಬಭೂಭುಷೇ ಸಹಸ್ರಾಕ್ಷರಾ ಪರಮೇ ವ್ಯೋಮನ್ನಿತೇ ವಾಜೋ ವಿಶೇಷಣಂ ಅಥ ನಿಗದವ್ಯಾಖ್ಯಾತಾಃ ತಾನನುಕ್ರಮಿಷ್ಯಾಮಃ ವರಾಹವಸ್ವತಪಸಃ ವಿದ್ಯುನ್ಮಹಸೋ ಧೂಪಯಃ ಶ್ವಾಪಯೋ ಗೃಹಮೇಧಾಶ್ಚೇತ್ಯೇತೇ ಯೇಚೇಮೇಷಿಮಿ ವಿದ್ವಿಷಃ ಪರ್ಜನ್ಯಾಃ ಸಪ್ತ ಪೃಥಿವೀಮಭಿವರ್ಷಂತೆ ವೃಷ್ಟಿಭಿರಿತೇ ಏತಯೈವ ವಿಭಕ್ತಿ ವಿಪರೀತಾಃ ಸಪ್ತಭಿರ್ವಾತೈರುದೀರಿತಾಃ ಅಮೂಲ್ಲೋಕಾನಪಿ ವರ್ಷಂತೆ ತೇಷಾಮೇಷಾ ಭವತಿ ಸಮಾನಮೇತದುದಕಂ ಉಚ್ಚೈತ್ಯವಚಾಭಿಃ ಭೂಮಿಂ ಪರ್ಜನ್ಯಾಜಿನ್ವಂತೇ ದಿವಂ ಜಿನ್ವಂತ್ಯಗ್ನಯಹಿತೇ ಯದಕ್ಷರಂ ಭೂತಕೃತಂ ವಿಶ್ವೇ ದೇವಾ ಉಪಾಸತೆ ಮಹರ್ಷಿಮಸ್ಯ ಗೋಪ್ತಾರಂ ಜಮದಗ್ನಿಮಕುರ್ವತ ಜಮದಗ್ನಿರಾಪ್ಯಾಯತೆ ಛಂದೋಭಿಶ್ಚತುರುತ್ತರೈಃ ರಾಜ್ಞಃ ಸೋಮಸ್ಯ ತೃಪ್ಸಾ ಸಹ ಬ್ರಹ್ಮಣಾ ವೇದ್ಯಾವತ ಶಿವಾನ ಪ್ರತಿಶೋ ದಿಶಃ ತಚ್ಛಯ್ಯೋರಾವೃಣೀಮಹೆ ಗಾತಂಯಜ್ಞಾಯ ಗಾತಂಯಜ್ಞಪತಯೇ ದೈವೇ ಸ್ವಸ್ತಿರಸ್ತು ನಃ ಸ್ವಸ್ತಿರ್ಮಾನುಷೇಭ್ಯಃ ಊರ್ಧ್ವಂ ಜಿಗಾತು ಭೇಷಜಂ ಶನ್ನೋ ಅಸ್ತು ದ್ವಿಪದೇ ಶಂ ಚತುಷ್ಪದೇ ಸೋಮಪಾ ಅಸೋಮಪಾ ते निगदव्याख्याताः सहस्रवृदयम् भूमिः परम् व्योम सहस्रवृत् अश्विना भुज्यो न सत्या विश्वस्य जगतस्पते जाया भूमिपतिर्व्योमा मिथुनन्ता अतुर्यधुः पुत्रो बृहस्पति रुद्रः सरमा इति स्त्री पुमम् शुक्रम् वा मन्यद्यजतम् वा मन्यत् विशुरूपे अहनेद्यौरिवस्थः विश्वाहि माया अवधः स्वधावन्तौ भद्रावा भूषणा विहरातिरस्तु वासात्यौ चित्रौ जगतो निधानौ व्यावा भूमि चरथः सगुं सखायौ तावश्विना रासभाच्वाहवम् मे शुभस्पति आगतगुम् सूर्यया सह त्युग्रोह भुज्युमश्विनोद मेघे रयिन्न कश्चिन्न मृवा अवाह तमोह दुर्नौभिरात्मन्वतेभिः अन्तरिक्षप्रुड्भिरपोदगाभिः भद्रम् कर्णे विशृणुयाम देवाः भद्रम् पश्ये वाक्षभिर्यजत्राः स्थिरैरङ्गैस्तु वागुंसस्तनोभिः यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्तार्चो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ धाता पुरस्ताद्यमुदाजहार शक्रप्रविद्वान् प्रदिशश्च दस्रः तमेवम् विद्वानमृत इह भवति नान्यपन्था अयनाय विद्यते सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमान्नित्यम् विश्वम् नारायणगुम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवते पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायणपरो ज्योतिरात्मा नारायणः परः नारायणपरम् ब्रह्म तत्त्वम् नारायणः परः नारायणपरो ध्याता ध्यानम् नारायणः परः यच्च किञ्चिज्जगत् सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेऽन्तम् विश्वशम्भुवम् पद्मकोशप्रतिकाशगुम् हृदयम् चाप्यधोमुखम् अधो निश्यामितस्यान्तेनाभ्यामुपरितिष्ठते ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत सन्ततगुम् शिलाभिस्तुलम् पत्याकोशसन्निभम् तस्यान्ते सुशिरगुं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितं तस्य मध्ये महानग्निर्विश्वाचिर्विश्वतो मुखः सोऽग्रभुग्विभजन् तिष्ठन्नाहारमजरः कविः तिर्यगोर्ध्वमदस्यायैरश्मयस्तस्य सन्तता सन्तापयति स्वं देहमापादकलमस्तकः तस्य मध्ये वह्निशिका अनीयोर्ध्वायवस्थितः नीलतो यदमध्यस्ता विद्युल्लेके बभास्वरा नीवारशोकवर्तन्ते पीताभा सत्यनोपमा तस्याशिकाया मध्ये परमात्मा व्यवस्थितः स ब्रह्मः स शिवः स हरिस्सेन्द्र सोऽक्षरः परमस्वरात् हृदगुम् सत्यम् परब्रह्म पुरुषम् कृष्णपिङ्गलम् ऊर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुप्रचोदयात्
ॐ शान्ति शान्ति शान्तिः
ॐ निधनपतये नमः निधनपतान्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः सर्वाय नमः सर्वलिङ्गाय नमः शिवाय नमः शिवलिङ्गाय नमः ज्वलाय नमः ज्वललिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः एतत् सोमस्य सूर्यस्य सर्वलिङ्गकृस्तापयति पाणिमन्त्रम् पवित्रम् सद्योज्जातम् प्रपद्यामि सद्योज्जाताय वै नमो नमः भवे भवे नाति भवे भव स्वमाम् भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमदनाय नमः सर्वभूतदमनाय नमो मनोत्मनाय नमः अगोरेभ्यो तगोरेभ्यो गोरगोरतरेभ्यः सर्वेभ्यः सर्वसर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रप्रचोदयात् ईशानः सर्वविद्यानाम् ईश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्म शिवो मे अस्तु सदा शिवो प्रजाभ्यः परिपालयन्ताम् ज्ञायेन मार्गेण महीमहेशा गो ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः